मामात्म भाव मनयसेन यावत् तृप्तिः उतस्ते भवतेह तावत्।
Je ne puis comprendre dans le silence de la plus pure dévotion. Je t'adore.
O thou whom I cannot understand in the silence of the purest devotion, I adore thee.
Mira mama sharanam